आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी बिहार राज्यस्य पूर्णियातः आभासीय माध्यमेन 40,000 करोड़ रूप्यकाणां बहुविध विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। प्रधानमन्त्री नवनिर्मितस्य पूर्णिया विमानस्थानकस्य उद्घाटनं च विधास्यति। श्रीमोदी बिहार राज्ये राष्ट्रिय मखाना बोर्ड इत्यस्य अपि शुभारम्भं करिष्यति। असौ कोसी मेची अन्तरराज्यीय नदी सम्बद्ध परियोजनायाः प्रथम चरणस्य अपि शिलान्यासं विधास्यति। रेलक्षेत्रे प्रधानमन्त्री अनेकासां विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। नूतनानां रेलयानानां आरम्भं च करिष्यति। अररिया गलगलैया मध्ये स्थितस्य नूतनस्य रेलमार्गस्य उद्घाटनं च करिष्यति। अररिया गलगलैया खण्डे रेलयानस्य उद्घाटनेन पूर्वोत्तर बिहारस्य सम्पर्क व्यवस्थायाः परिष्कारः भविता। जोगबनी दानापुरयोः मध्ये वन्दे भारतस्य आरम्भो भवति, येन अररिया पूर्णिया मधेपुरा सहरसा खगरिया बेगुसराय समस्तीपुर मुजफ्फरपुर वैशाली पटना इत्यादीनां मण्डलानां कृते लाभो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य कोलकातायाः विजयदुर्गे भारतीय सेनायाः मुख्यालये संयुक्त सेनापति सम्मेलनस्य उद्घाटनं विधास्यति। सम्मेलनमिदं सितम्बर मासस्य 17 दिनांक पर्यन्तं भविष्यति। रक्षामन्त्री राजनाथ सिंहः अपि अस्मिन् कार्यक्रमे उपस्थितो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी गतदिने सायंकाले कोलकातायां समागच्छत्। कोलकातायाः राजभवने रात्रौ स्थितवान्। कोलकातायां त्रिदिवसीय संयुक्त सेनापति सम्मेलने विश्वस्य वर्तमान राजनैतिक स्थिति विषये प्रौद्योगिक्याः विषये त्रयाणां सशस्त्र सेनानां शाखानां समन्वयस्य विषये आधुनिकीकरणस्य विषये च चर्च्यन्ते। प्रधानमन्त्री नरेन्द्र मोदी ह्यः असम राज्ये 300,000,000,000 करोड़ रूप्यकाणां प्रमुख संरचनायाः औद्योगिक विकासस्य च परियोजनानां उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः दरांग जनपदस्य मंगलदोई क्षेत्रे जनान् सम्बोधितवान्। असौ प्रोक्तवान् यत् भारतं विश्वस्य द्रुतगत्या वर्धमानः देशः अस्ति, तथा च असम राज्यं देशस्य द्रुतगत्या वर्धमानेषु राज्येषु अन्यतमम् अभवत्। सः अवोचत् यत् एकविंशतितमायाः शताब्द्याः 25 वर्षाणि गतानि। अधुना अस्याः शताब्द्याः अयम् अग्रिमः भागः देशस्य वैश्विक पूर्वस्य पूर्वोत्तरस्य च वर्तते।
बांस से बायो इथेनॉल बनाने वाले आधुनिक प्लांट का उद्घाटन किया गया है। ये असम के लिए बहुत गर्व की बात है। इथेनॉल प्लांट के लोकार्पण के साथ ही आज यहाँ पॉलीप्रोपिलीन प्लांट का शिलान्यास भी हुआ है। ये प्लांट असम में उद्योगों को बल देंगे, असम के विकास को गति देंगे, किसानों नौजवानों सभी के लिए नए अवसर बनाएंगे।
भारतीय ऋतु विज्ञान विभागेन बिहार उपहिमालीय पश्चिम बंगाल अरुणाचल प्रदेश असम मेघालय गोवा सिक्किम राज्यानां पृथक पृथक स्थानेषु प्रचण्डतः अति वृष्टेः पूर्वानुमानं प्रकटितम्। उत्तराखण्डे हिमाचल प्रदेशे छत्तीसगढ़े आंध्रप्रदेशे मध्यप्रदेशे महाराष्ट्रे नागालैंड राज्ये मणिपुरे मिजोरम राज्ये त्रिपुरायां उत्तरीय कर्नाटके ओडिशायां तेलंगानायां चापि अद्य प्रचंड वृष्टिः भविष्यति। पुरुष क्रिकेट क्रीडायां ह्यः सायं दुबई नगरे प्रचल्यमाणायाः 20-20 एशिया कप प्रतियोगितायाः असमूहस्य संघर्षे भारतीय दलं विजयम् अवाप्नोत् इति वार्ताः।